श्रीकृष्णसहस्रनामस्तोत्रम् हरि हरिर्देवकी नन्दनः कंसः तापरात्मा च पीताम्बरः पूर्णदेवः रमेशं वो कृष्णः परिषः पुराणः सुरेशोऽच्युतो वासुदेवश्च देवः धराभारहर्तकृती राधिकेशः परो भूवरो दिव्यगोलकनाथः सुदाम्नस्तथा राधिकाशपहेतुर्गृणी मानिनिमानदो दिव्यलोकः लसद्गोपविशोहाजो राधिकात्माचल कुण्डल कुण्डली कुन्तलोश्रत रथस्तः कन्दारथया दिव्यरत्नः सुधसोदभूचरणो दिव्यवसः कदा वृन्दकारण्यचरीस्वलोके महारत्नसिंहासनस्थः प्रशान्तः महाहंसभैश्चामरैर्वीर्यमानश्च लक्षये मुक्तावलि शोभमानः सुखी कोटिकन्दर्पलिलभामि रामः कन्ननो पुरलाभीतङ्गिः शुभं गृहि सुजानुश्च रङ्गशोभोरुः कृशाङ्गः प्रतपी भूषुण्डा दुर्दखण्डः जपपुष्पहस्तश्च शाकुतर श्रीमार्गपद्मवक्षस्थलश्चन्द्रहासः लसत्कुन्ददन्तश्च बिम्बाध्वरश्रीः सरत्पद्मनेत्रः किरीटोज्ज्वलाभः सखिकोटिभिः वर्तमानो निकुञ्जे प्रियराधाय राससुक्तनवाङ्गः धरा ब्रह्मरुद्रादिभिः प्रार्थितः स्वधाराभरदूरीकृतार्थं प्रजातः यदुर्देवकी शोक्षादो वन्दनचित्सशेषो भीवुर्गो मायि च विष्णुः व्रजे नन्दपुत्रो यशुदासोताख्यो महासोख्यादो बालरूपः शुभाङ्गः तथा पूतनामोक्षदः श्यामरूपो दयालुस्तनो भञ्जनः पल्लवाङ्घ्रिः त्रिणावर्तसंहारकारी च गोपो यशोदायशो विश्वरूपप्रदर्शी तथा गर्गतिष्ठश्च भाग्योदयश्रीः लसतालकेलिः स्वारमः सुवाचः कन्ननो पूरैः शब्दयो मानस्तथा जानुहस्तैर्वज्रशङ्गणेव दधिष्पृच्च हैङ्गवित्युक्तभोक्ता दधिस्तियकृतुक्तभोग्वाण्डभेत्या मृदङ्गुक्तवान् गोपजो विश्वरूपः प्रचण्डं शुचण्डप्रभामण्डिताङ्गः यशोदाकरैवर्धनम् प्राप्ताद्यो मणिग्रीवमुक्तिप्रदोदामबद्धः कदा नित्यमनो व्रजे गोपिकाभिः कदा नन्दसन्नन्दकैलाल्यमानः कदा गोपनन्दं गोपलारुपी कालिन्दं जातुलगोवर्तमानः घनैर्मारुतैश्चन्न पाण्डिरदिशि गृहीतो वरो राधया नन्दहस्तात् निकुञ्जे च गोलकलोकगतेऽपि महारत्नसङ्घैः कदम्बावृतैः तदा ब्रह्मणा राधिका सादिबाहे प्रतिष्ठङ्गत पूजित साममन्त्रैः रसिरासयो मालतीनां वनेऽपि प्रियराधः हरतीतार्थो रमेशः धरानाथ आनन्ददः श्रीनिकेतो वनेशो धनी सुन्दरो गोपीकेश कदा राधाय प्रापीतो नन्दगेहे यशोदाकरैलालितो मन्दहासः भैक्यापि वृन्दारकारण्यवासी महामन्दिरे वासक्रीते व्यपूज्यः वणि वत्सचारी वकारी सुरै पूजितो हारी नमः वने वत्सकृद्वोपग्रीदो प्रवेशः कदा ब्रह्मण संस्तुतः पद्मनाभः विहारी तथा तालभूमेनुकारी सदा रक्षको कोविशाति प्राणश कलिन्दाङ्गजकुलगः कलीयशदमी नित्याकारी फणीश्वप्रसिद्धः सलीलः शमी ज्ञानदः कामपुरस्तथा भोपयुगपो आनन्दकारी स्थिरी अग्निभुः पालको बाललील सुरागश्च वंशीधर पुष्पशीलः प्रलम्ब प्रभानाशको भूरवर्णो बलो रोहिणी चश्च रामश्च शेषः बली पद्मनेत्रश्च कृष्णाग्रजश्च धरेशः फणीशम्भो नीलाम्बराभः महाशोख्यादो भग्निहरो व्रजेशः शरद्रिष्व वर्षाकरः कृष्णवर्णः व्रजे गोपीका पूजितश्चिरहर्ता कदम्बे स्थितश्चिरदः सुन्दरीशः स्फुधानाशकृत्यङ्क्यपत्निमन स्पृत्यपाकारकः केलीकर्ता वनीशः व्रजिशत्रुता प्राश्नाशी मितशी सुनाशीरमहोक्रतो बालरूपी गिरेः पुजको नन्दपुत्रो व्याग्रदः कृपाकृच् गोवर्धनो द्वारिनामा तथा वातवर्षहरो रक्षश्च व्रजाधीश गोपाङ्ग नाशङ्कितः सन् अग्रेन्दोपरि शत्रुपूज्यः स्तुतः प्राङ्गणेशा शिक्षको देवगोविन्दनाम व्रजाधीशरक्षकरः पाशी पूज्यनो जैर्गोप जैर्दिव्यवैकुण्ठदर्शि चलच्चारुवंशिकनः कामिनिशो व्रजे कामिनी मोहदः कामरूपः रशक्तो रशीराशक्रीदाधिकेशो महामोहदो मानिनी मानहारी विहारी वरो मानरिद्राधिकङ्गो ध्वरादीपगः खण्डचारी वनस्थः प्रियो हृष्टवक्त्रश्चिस्रष्टा सराधो महामुक्षदः पद्महारी प्रियार्थः वटस्थः सुरश्चन्दनप्तः प्रसक्तो व्रजं यागतो राधया मोहिनिषु महमोकृतोऽपि कागितकीर्तिरसस्थः पटी दुःखिता कामिनीशः वने गोपिकात्यागकृतपादचिह्न प्रदर्शि कलाकारकः काममो वसी गोपी कामाध्यगः पेशवाचः ಪ್ರಿಯ ಪ್ರೀತಿ ಕೃದ ಸಾರತಃ ಕಲೇಶಃ ರಸಾರ ರಕ್ತ ಚಿತ್ತೋ ಅನಂತ ಸ್ವರೂಪಃ ಶ್ರಜಾ ಸಂಗ್ರೀತೋ ವಲ್ಲಮೀ ಮಧ್ಯಸ್ಥಂಸ್ಥಃ ಸುಬಾಹು ಸುಪದ ಸುವೇಶಃ ಸುಕೇಶಃ ವ್ರಜೇಶಃ ಸಖಾ ವಲ್ಲಭೇಶಃ ಸುದೇಶಃ ಕನಕಿಂಕಿನಿಜಾಲವಿನ್ಯೋ ಪುರಾಢ್ಯೋ ಲಸತ್ಸಂಕನೋ ಭ್ಯಂಗೀಹಾರಭಾರಃ ಕಿರೀಟೀಚಲಕುಂಡಲಶ್ಚಾಂಗುಲೀಯತ್ಸ್ಫುರತ್ಕೌತುಕೋ ಭೋ ಮಾಲತಿಮಂಡಿತಂಗಃ ಮಹನೃತ್ಯಕೃದಾಸರಂಗಃ ಕಲಾಢ್ಯಶ್ಚಲಧಾರಭೋ ಭಾಮಿ ನಿತ್ಯಯುಕ್ತಃ ಕಲಿಂದಾಂಗಜಾಗೇಕಿ ಕೃತ್ಕುಂಕುಮಶ್ರೀ ಸೂರೈರ್ನಯಿಕನಾಯಕೈರ್ಮಾನ ಸುಖಾಢ್ಯೋಸ್ಥು ರಾಧಪತಿ ಪೂರ್ಣಬೋಧ ಕಟಾಕ್ಷ್ಮೋಭಿಲಾಷಃ ಶೂರಮೋಹಿಲಿಭಿಃ ಕುಂತಲಾಲೋಲಕೇಶಃ ಸ್ಫುರದ್ವರಕುಂದಶಜಾಚಾರುವೇಷಃ ಮಹಾಶರ್ಪತೋ ನಂದರಕ್ಷಾ ಪರಾಂಗ್ರಿಃ ಸದಾ ಮುಕ್ಷದಃ ಶಂಖಚೂರ ಪ್ರಾಣಶೀ ಪ್ರಜಾರಕ್ಷಕೋ ಗೋಪಿಕಾ ಗೀಯಮಾನಃ ಕಕುದ್ಮೀ ಪ್ರಣಶ ಪ್ರಯಾಸಃ ಸುರೇಚ್ಯಃ ಕಲಿ ಕ್ರೋಧ ಕೃತ್ಕಂ ಸಮಂತ್ರಪೋದಿಷ್ಟಾ ತಥಾ ಕ್ರೂರ ಮಂತ್ರೋಪದೇಶೀ ಸುರಾರ್ಥಃ ಬಲಿಕೇಶಿಃ ಪುಷ್ಪವರ್ಷೋ ಮಲಶ್ರೀಸ್ತಥಾ ನಾರದಾದರ್ಶಿತೋ ಭೋ ಮಹಂತಾ ತಥಾ ಕ್ರೂರ ಶಿವಪರಾಃ ಸರ್ವದರ್ಶಿ ವ್ರಜೇ ಗೋಪಿಕಾ ಮೋಹದಃ ಕುಲವರ್ತಿ ಸತೀ ರಾಧಿಕಾ ಬೋಧದ ಸ್ವಪ್ನಕರ್ತಾ ವಿಲಾಸಿ ಮಹಾಮೋಹನಾಶೀ ಸ್ವಬೋಧ ವ್ರಜಿಶಾಪತಸ್ತಸ್ತ ರಾಧಾ ಸಕಾಶೋ ಮಹಾಮೋಹದಾ ವಾಮೀ ದಗ್ಧಪತಿಶ್ಚ ಸಖೀ ಬಂಧನಾನ್ ಮೋಹಿತಾ ಕ್ರೂರ ಆರತ್ ಸಖಿ ಕಂಕಣೈಸ್ತಾನ್ವಿತಾ ಕ್ರೂರ ರಕ್ಷಿ ರಥೋಸ್ತು ವ್ರಜೇ ರಾಧಯ ಕೃಷ್ಣಚಂದ್ರ ಸುಗುಪ್ತೋ ಗಮೀ ಗೋಪಕೈಶ್ಚಾರುಲೀಲಯ ಜಲೇಹ ಕ್ರೂರ ಸಂದೇರ್ಶೀತೋ ದಿವ್ಯ ರೂಪೋ ದಿದೃಕ್ಷುಃ ಪುರಿ ಮೋಹಿನೀ ಚಿತ್ಯ ಮೋಹಿ ತಥಾ ರಂಗಕಾರಾ ಪ್ರಣಶೀ ಸುಹಸ್ತ್ರಃ ಸ್ವಜೀ ಬಾಯಕ ಪ್ರೀತಿ ಕೃನ್ಮಾಲಿ ಪೂಜ್ಯಃ ಮಹಾಕೀರ್ತಿತಶ್ಚಾಪಿ ಕುಬ್ಜ ವಿನುದಿ ಸ್ಫುರಶ್ಚಂಡ ಕೋದಂಡ ರುಗ್ಣ ಪ್ರಚಂಡಃ ಭಟಾರ್ತಿ ಪ್ರದಃ ಕಂಸ ದುಃಸ್ವಪ್ನಕಾರೀ ಮಹಾಮಲ್ಲವೇಶಃ ಕರೀಂದ್ರ ಪ್ರಹಾರೀ ಮಹಾತ್ಮಾತ್ಯಾಹ ರಂಗಭೂಮಿ ಪ್ರವೇಶಿ ರಸಾಢ್ಯೋ ಯಶ ಪ್ರಿಕ್ವಲೀ ವಾಪಟುಶ್ರೀ ಮಹಾಮಲ್ಲಃ ಯುದ್ಧಕೃತ್ ಶ್ರೀವಚೋಹರ್ತಿ ಧರನಾಯಕಃ ಕಂಸಹಂತಾಯ ದುಃಖಾತ ಸದಾ ಪೂಜಿತೋ ಉಗ್ರಸೇನ ಪ್ರಸಿದ್ಧೋ ಧರಾರಾಜ್ಯದೋ ಯಾದವೈರ್ಮಂಡಿತಂಗಃ ಗುರುಪುತ್ರದೋ ಬ್ರಹ್ಮವಿದ್ವಹಂ ಪಠೀ ಮಹಾಶಂಖಃ ದಂಡಧೃಕ್ಕುಜಾಯೇವ ವ್ರಜೇ ಹುದ್ಭ್ರವ ಪ್ರಿಷಿತೋ ಗೋಪಮುಹೀ ಯಶೋದಾಗ್ರಣೀ ಗೋಪಿಕಾ ಜ್ಞಾನದಿಶೀ ಸದಾ ಸ್ನೇಹಕೃತ್ ಕುಬ್ಜಯಾ ಪೂಜಿತಾಂಗಸ್ತಥಾ ಕ್ರೂರ ಗೇಹಂಗಮೀ ಮಂತ್ರವಿದ್ಯಾ ತಥಾ ಪಾಂಡವ ಪ್ರಿಷಿತಾ ಕ್ರೂರ एव सुखी सर्वदर्शी निपातकारी महाश्को हिनिहा जरा संधमानी रिपो द्वारकाकारको मोक्षकर्ता रणि सार्वभौमस्तुतो ज्ञानदाता जरसन्धसङ्कल्प कृत्वा वदन् गृहे नगदुद्भतद्वारिका मध्यवर्ती तथा रेवति भूषणस्थालचिह्नः यदुरुक्मिणी हारकश्चैत्य वेद्यस्तथा रुक्मिरूपप्रणशी सुखशी अनन्तश्च मारश्च काशिश्च कामो मनो यजस्त शाम्बरारी रतिशः रथे मन्मथो मिनकेतुः शरी च स्मरो दर्पको मानः पञ्चवानः प्रियः सत्यभामा पतिर्यादवेषु हतः सत्सजेत प्रेम पुरः प्रहासः महारत्नदो जाम्बवद्युद्धरिकरी महचक्रधृखण्डकद्रिग्रामसंधिः विहारस्थितः पाण्डव प्रेमकारी कलिन्दाङ्गजा मोहनः पाण्डवार्थी सखा फाल्गुना प्रीतिग्रहकर्ता तथा मृत्यविन्दपतिः क्रीडनार्थी नृपप्रेमकृत्कुजितः सप्तरूपः सत्यपतिः परिवर्हि यथिष्ठः नैपि संहृतश्चापि भद्रपतिस्तु विलसि मधुर्माणि निशोजनेशः सोनाशीरमुहावृतः सत्सवार्यः सत्यक्षो मुररिपुरिसङ्घो वेत्यः सुवीरः शिरः खण्डनो द्वैतनाशी शरी भूमहाचाण्डवेगः प्रवीरः धरा संस्तुतः कुण्डलच्छत्रहर्ता महारत्नयो राजकन्याभिरामः शचिपूजितः शत्रुजिन्मानहर्ता तथा पारिजातपहारी रमेशः गृहिचामरै शोभितो विश्वकन्या प्रतिहर्ष कृन्नानिनी मानकारी तथा रुक्मिणी वाक्पटुः प्रेमगेहः सती मोहनः कामदेव पराश्रिः सुदिष्णः सुचारुस्तथा चारुदेशो पराश्चरो देहो बलिचारुक्तः सुतीभद्रचारुस्तथा चारुचन्द्र विचारुश्च चारुरथिपुत्ररूपः सुभानुः प्रभानुस्तथा चन्द्रभानुर्विहद्भानुरेवष्टभानुश्च साम्बः सुमित्रः क्रतुश्चित्रकेतुस्तु विरुश्वश्वसिनो वृषचित्रकुश्चन्द्रबिम्बः विषमिषुर्वश्वश्च श्रुतो भद्र एकः शुबाहो वृषः पूर्णमासस्तु सोमः वरः शान्तिरेव प्रघोषोहतः सिंहो बलो रुर्धगोवर्धनोन्नाद एव महाशोवृकः पावनो वह्निमित्रः सुधीरहर्कश्च नीलमित्रजिच्च सुभद्रोजयः सत्तको वाम आयो यदु कोटीशपुत्रपुत्रप्रसिद्धः हलीदन्तध्रीगुह्नीः च निरुद्धस्तथा राजविहर्षगो दूतकर्ता मधु ब्राह्मण सुवर्ण पुत्री पतिश्च महासुंदरः काम पुत्र वलीशः महदैत्य संग्राम कृत्य देवशः पुरी वंजनो भूत संसाशकारी मृधि रुद्र जित्रुद्र मोही मृदार्थी तथा स्कंदजित कूपकर्ण प्रहारी धनुर्भंजनो बाणमान प्रहारी जरुपत्ति कृति संस्तुस्तुतो जरेण भुजच्छेद कृदाण संत्रासकर्ता मृदभस्तु युद्ध कृत भूमि वर्ता मृगं मुक्तिदो ज्ञानदो यादवानं रतस्तो व्रज प्रेम प्रोकोप मुख्य महासुंदरी प्रीणीत पुष्पमाली कालिंदंग जावेदन शिरपाणी महदंगीह पूंड्रमान महारो शिरश्छेदक काशीराज प्रणाशी महाशोभिनी ध्वंसकृच्छक्रहस्तः पुरीदीपको राक्षसी नाशकर्ता अनन्तो महिद्रः फणिवनारारिः स्फुरत्पूरवर्णो महापद्मनेत्रः कुरुग्रामतिर्यज्ञतो गौरवार्थः स्तुतः कौरवैः परीवरैः शशाम्बः महावैभवी द्वारकेशो हनेकश्चल नारदः श्रीप्रभादर्शकस्तु महर्षिस्तुतो ब्रह्मदेवः पुराणः सदा षोडशस्त्रिसहस्रस्थितश्च गृहिलोकरक्षपरो लोकरीतिः प्रभुगुग्रसेनावृतो दुर्गयुक्तः तथा राजदूतस्तुतो वन्दो भित्या स्थितो नारद प्रतुस्तः पाण्डवार्थी नृपै मन्त्रकृत् ऋद्वप्रीतिपूर्णो वृत्तः पुत्रो पौत्रिः कुरुग्रामगन्ता ऋणी धर्मराजस्तुतो भीमयुक्तः परानन्ददो मन्त्रकृद्धर्मजेन दिशाजिद्वली राजसूर्यार्थकारी जरासन्धः भीमसेनस्वरूपः तथा विप्ररूपो गदायुद्धकर्ता कृपालो महावन्धनच्छेदकारी नैपिः संस्तुतो यागतो धर्मगेयं द्वैजिः संवृतो यज्ञसंभारकर्ता जनैः उचितश्चैक दुर्वाक्षमश्च महामहो दोरिह शिरश्छेदकारी महायज्ञशोभाकरश्चक्रवर्ती नृपानन्दकारी बिहारी सुहारी सभासंवृतो मानः कौरवस्य तथा शालम्बसंहारो यानहन्ता स भोजश्च विष्णीर्मधुः शूरशीणो दशार्वा यदुर्हन्धको लोकजिच्च यदु मानः वर्मधिप्रशस्त्रे स्वबोधः सदा रक्षको दैत्यहन्ता तथा दन्तवक्त्रप्रणाशी गदाजगतीर्थ यत्र करः पद्महारः कुशीसूतहन्ता कृपाकृत्स्थितिशोमलो बल्वलाकप्रभाखण्डकारी तथा भीमदुर्योधनज्ञानज्ञाता परो रोहिणी शोक्षतो रेवतीशः महदानकृत् विप्रदारिद्रः च सदा प्रेमयुः शिशुदाम्नाः सहायः तथा भार्गवक्षेत्रगन्ता शरामोऽथ सूर्योपराक्षुतः सर्वदर्शी महसेनज च स्थितः स्नानयुक्तो महदानकृन्मित्रसन्निलानार्थी तथा पाण्डवप्रीतिदः कुन्ती चार्थी विशालक्ष्ममोहप्रदः शान्तिदश्च वटेराधिकाराधानो गोपिकाभिः सखिकोटिभिः राधिका प्राणनाथः सखिमोहदा वाग्मीहा वैववेशः स्फुरत्कोटिकन्दर्पलीलाविशेषः सखिराधिका दुःखनाशी विलाशी सखिमध्यगः शापः माधवीशः शतं वर्षविक्षे पहिन्नन्दपुत्रस्तथा नन्दवक्षुगतः शीतलाङ्गः यशोदाशोचः स्नानकृद्दुःखहन्ता सदा गोपिनी का नेत्रलग्नो व्रजेशः स्तुतो देवकी रोहिणीभ्यं सुरेन्द्रो रहो गोपिका ज्ञानदो मानदश्च तथा संस्तुतः पट्टराङ्गी वीराराध्वनि लक्षणा प्रणनाथः सदा हि त्रिभिः षोरशस्त्रि सहस्रस्तुताङ्गः शुको व्यासदेव्यः सुमन्तुः सितश्च भरद्वाजको गौतमो भासुरिः सदशिष्ठः शतनन्दहाद्यः शरामः मुनिः पर्वतो नरदो धौम्यो इन्द्रो शितोर्तिभिर्भाण्डः प्रचेत कृपश्च कुमारः सनन्दस्तथा याज्ञवल्कः रिवुर्हङ्गिर देवलः श्रीमिकण्डः मरिचीकृतोश्चोर्वको लोमशश्च पुलस्त्यो भृगुर्ब्रह्मरतो वसिष्ठः नरश्चापि नारायणो दत्त एव तथा पाणिनिः पिङ्गलभाष्वकरः स कात्यायनो विप्रपातञ्जलिश्चाथ गर्गो गुरुर्गिष्पतिर्गोतमीशः मुनिर्जाजलिः काश्यपो गालवश्च द्विजः सोहरिश्च शृङ्गश्च कनः द्वीतश्चैकतश्चापि जातुद्भवश्च घनः कर्दमश्चात्मज कर्दमश्च तथा भार्गवः उत्साहश्चरुणस्तु शुचिः पिप्पलादो मृकण्डस्य पुत्रः सपैलस्तता यैमिनी सुत्सुमन्तुर्वरो गाङ्गलः स्फोटगेह फलादः सतापूजितो ब्राह्मणः सर्वरूपी मुनीशो महामोहनाशो मरः प्राप्त मुनीशस्तुतः सौरिविज्ञानदाता महाज्ञानकृच्छावृतस्नानपूज्यः सदा दक्षिणादो नैपैः परिवरिः व्रजानन्ददो द्वारिका गेहदर्शी महाज्ञानदो देवकी पुत्रदश्चासुरैः पूजितो हीन्द्राशिनाधृतश्च सदा फाल्गुनप्रीतिकृत् सत्सुभद्रा विवहे द्वीपशाप्रदो मानयानः भुवं दर्शको मैथिलेन प्रयुक्तो दीजलाशो राज्ञा स्थितो ब्राह्मणैश्च कृति मैथिले लोकवेदोपदेशी सदा वेदवाक्यैः स्तुतः शेषशजी परीक्षावृतो ब्राह्मणैश्च मरिषु भृगु प्रार्थितो दैत्यः शेषरक्षी सखचार्जुनस्यपि मानप्रहारी तथा विप्र पुत्रप्रदो धामगन्ता विहारस्थितो माधविभिः कालग्नो महामोहदावाग्निदग्धवीरामः यदुर्गक्षेणो नृपक्रूर एव तथा चोथव शूरशनश्च शूरः हृदिकश्च सत्रजितश्च प्रमयो गदः शरण सत्यकी देवभागः तथा मानसः सञ्जय श्यामकश्च श्रीको वत्सको देवको भद्रसेनः नृपजातशत्रुर्जयो मानिपुत्रोऽथ भीमः क्रीपो बुद्धिश्चक्षुश्च पाण्डुः तथा शन्तनुर्देववाल्मीक एवथ भूरिश्रवाश्चीयवीर्यो विचित्रः शलश्चापि दुर्योधनः कर्ण एव सुभद्रासुतः विष्णुरातः प्रसिद्धः सजन्मेष जयः पाण्डवः कौरवश्च तथा सर्वतेजहरिस्वरूपी वज्रं जगतो राधया पूर्णदेवो वरो रासलीलापरो दिव्यरूपी रथस्थो नवद्वीपखण्ड प्रदर्शे महामानदो सनन्दश्च नन्दो वृषो वल्लभेशः सुदामार्जुनः सौवल्यस्तोक एव सकृष्णो शूकः स्वदेशालर्षभाख्यः सुतेजस्मीकः कृष्णमित्रो वरूथः कोशेषु वनेशस्तु वृन्दावनेशस्तथा मथुरेशाधिपो गोकुलेशः सदा गोगनो गोपती गोपिकेशः स गोवर्धनो गोपतिः कन्यकेशः अनादिस्तु चात्मा हरिः पुरुषश्च परो निर्गुणो ज्योतिरूपो निरीहः सदा निर्विकारः प्रपञ्चात्परश्च सस्तस्तु पुनरः परेशस्तु सुष्मः द्वारकायं तथाश्चामेधश्च कर्ता नीपेनापि पुत्रेण भूभारहर्ता पुनः श्रीवजिरासरङ्गस्य कर्ता हरिराधाय गोपीकलं च वर्ता सदैकस्तेन कः प्रभापूरितङ्गस्तथा योगमायाकरः कालचिच्च सुधिष्ठिर्महोत्वत्वरूपः प्रजातः सकुटस्थ आद्याकरो वृक्षरूपः विकारस्थितश्च अहङ्कार एव स वैकारिकस्तैजसस्तामसश्च मनोतिक्रमिरस्तु सूर्यः प्रचेतो शिवन्निश्च शत्रुः उपेन्द्रस्तु मित्रः श्रुतिस्तश्च दृघ्राणजिह्वाकिरिश्च भुजमीडकः पायोरुग्निः शचिष्ठः धरा भूमवामारुतश्चैव तेजुहथरूपम् रसोगन्धशब्दस्पर्शश्च सचित्तश्च बुद्धिर्विराट् कालरूपस्तथा वासुदेवो जगत्कृत्तत्तङ्गः तथांडे शयानः शशेषः सहस्रस्वरूप रमानाथ आद्यावतारः सदा सर्गकृत् पद्मजः कर्मकर्ता तथा नाभि पद्मद्भुवो दिव्यवर्णः कविलोककृत्कालकृत् सूर्यरूपो निमेषो भवो वत्सरन्तो महीयान् तिथिर्वारनक्षत्रयोगाश्च लग्नोहतमासो घटी च हनः काष्टिका च मुहूर्तस्तु यामग्रहायामिनी च दिनं चक्षर्मलागतो देवपुत्रः कृतो वा परस्तु पीतस्तत्कलिस्तु सहस्रं युगस्तत्र मनन्तरश्च लयः पालनं सत्कृतिस्तत्पराधं सदुत्पत्तिकृत्यक्षरो ब्रह्मरूपः तथा रुद्रसर्गस्तु कौमारस्वर्गो मुनेः सर्गकृतेव कृत्पाकृतस्तु श्रुतिस्तु श्रुतिः स्तोत्रमेवं पुराणं धनुर्वेद इज्ञाथ गन्धर्ववेदः विधाता च नारायणः सत्कुमारो वरहस्तता नारद धर्मपुत्रः मुनिः कर्दमास्यात्मजो दत्त एव सयको मरो नाभिजः श्रीपितुश्च सुमत्सश्च पूर्वश्च धन्वन्तरिश्च तथा मोहिनी नारसिंहेह प्रतापी द्विजुवामनो रेणुका पुत्ररूपो मुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता धनुर्वेदभाग्रामचन्द्रावतारः ससितापतिर्भारहृद्गार्वनारिः नीपः सेतु विदाननेन्द्रपहारी महायज्ञकृदा गाविन्द्रः प्रचण्डः बलः कृष्णचन्द्रस्तु कल्किः कलेशस्तु बुद्धः प्रसीदस्तु हंसहस्तताश्वः ऋषीन्द्रोजितो देववैकुण्ठनाथो यमूर्तिश्च मन्वन्तरस्यावतारः गजोद्वारानः श्रीमनुर्ब्रह्मपुत्र नृपेन्द्रस्तु दुष्यन्तजोदानशीलः सदिष्टः श्रुतो भूत एवं भविष्यद्वत्स्वावरो जगन्मोहल्पं महच्च इति श्रीभुजङ्गप्रायतेन चोत्तं हरे राधिकेश नाम्ना सहस्रम् पाठेद्भक्तियुक्तो द्विजः सर्वदा हि कृतार्थो भवेत् कृष्णचन्द्रस्वरूपः महापापराशिं विनत्ति श्रुतं यत्सदा वैष्णवानं प्रियं मङ्गलं च ईदं रासरापादिने चाश्लिष्य तथा कृष्णजन्माष्टमी मध्य एव तथा चैत्रमासस्य राकदिने वाथ भद्रे च राधाष्टमी सद्दिने वा पाठिद्भक्तयुक्तस्मीदं उज्जयित्वा चतुर्थ सोमुक्तिं तनोति प्रशस्तः पठित् कृष्णपुर्यं च वृन्दावने वा वृजे गोकुले वापि वंशिवटे वा वटे वाक्षये वा तटे सूर्यपुत्र्यः सा वक्तु यथा गोलको धाम प्रयति भजिद्भक्तिभावाच्च सर्वत्र भूमौ हरिं पुत्रोचारेण देहवने वा यः तीक्ष्णं जोरहरिस्तञ्च भक्तं सुवश्यो भविन्माधवः कृष्णचन्द्रः सदा गोपिनियं सदा गोपिनियं सदा गोपिनियं व्रजत्तेन भक्तैः प्रकाशं नाम्ना सहस्रं हरिश्च न दातव्यमेवं कदालं पटाय ईदं पुस्तकं यत्र गेहेऽपि तिष्ठेत्वस्येत्रधिकानाथ आद्यास्तु तत्र तथा षड्गुणः सिद्धयो द्वादशापि गुणस्त्रिंशद्विर्लक्षणस्तु प्रयान्ति इति श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम्।